इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य नवदिल्ल्यां सप्तसु वर्गेषु अद्वितीयोपलब्धीनां कृते सप्तदश बालेभ्यः प्रधानमन्त्री राष्ट्रिय बाल पुरस्कारं प्रदास्यति। एते बालाः चतुर्दश राज्यैः केन्द्रशासित प्रदेशैः च सम्बद्धाः वर्तन्ते। प्रशासनं कला, संस्कृति, वीरता, नवान्वेषण, विज्ञान प्रौद्योगिकी, समाजसेवा, क्रीडा, पर्यावरण इत्यादिषु क्षेत्रेषु उत्कृष्टोपलब्धीन् समानयितुं मान्यतां च प्रदातुं बाल पुरस्कारं प्रददाति। प्रत्येकस्मै पुरस्कार विजेत्रे पदकं, प्रमाणपत्रं, प्रशस्ति पुस्तिकां च प्रदास्यते। प्रधानमन्त्री नरेन्द्र मोदी अपि अद्य नवदिल्ल्याः भारत मण्डपम् स्थाने भारतस्य भविष्यस्याधाररूपेण बालानां सम्मानं कर्तुं राष्ट्रव्यापिनी वीरबाल दिवस समारोहे भागं ग्रहीष्यति। अत्रावसरे असौ जनसमागमम् अपि सम्बोधयिष्यति। द्वाविंशत्यधिकद्विसहस्रतमे वर्षे श्रीमोदी अघोषयद् आसीत् यत् दिसम्बर मासे षड्विंशे दिनांके गुरु गोविन्द सिंहस्य पुत्राणां साहिबजादे इत्येतेषां वीरतायाः, त्यागस्य च स्मरणार्थं वीरबाल दिवसः आचरिष्यते इति। प्रधानमन्त्री नरेन्द्रमोदी ह्यः पूर्व प्रधानमन्त्रिणः भारतरत्न अटलबिहारी वाजपेयी वर्यस्य शततम्याः जयन्त्याः अवसरे मध्यप्रदेशस्य खजुराहोस्थले देशस्य प्रथमायाः महत्वाकांक्षिणः बहुद्देशीय केन बेतवा राष्ट्रिय नदी संयोजन परियोजनायाः शिलान्यासं कृतवान्। अत्रावधौ प्रधानमन्त्रिणा देशस्य प्रथमायाः ओंकारेश्वर फ्लोटिंग सोलर इत्येतस्याः परियोजनायाः अपि उद्घाटनं विहितम्। अत्रावसरे प्रधानमन्त्री त्रिपञ्चाशदधिकैकशतोत्तरैकसहस्रसंख्यकानाम् अटल ग्राम सुशासन भवनानामपि भूमिपूजनम् अकरोत्। श्रीमोदी वाजपेयी वर्यस्य स्मृतौ एकां प्रैषचीटिकां मुद्रामपि प्रकाशितवान्। केन्द्रीय गृह सहकारिता मन्त्री अमितशाहः ह्यः नवदिल्ल्यां दशसहस्राधिकं नवस्थापिताः बहुद्देशीय प्राथमिक कृषि सहकारी संस्थाः, दुग्धोत्पादक मत्स्यपालन सहकारी संस्थाः च राष्ट्राय समर्पितवान्। असौ राष्ट्रिय सहकारिता सम्मेलनावधौ नवसंघटित सहकारिता समितये पञ्जीकरण प्रमाणपत्राणि, रूपे किसान क्रेडिट कार्ड, माइक्रो एटीएम इत्येतानि च वितरितवान्। एतैः वित्तीयपत्रैः पञ्चायतेषु ऋणसुविधाः, वित्तीयसमावेशं च वर्धिष्यति। अपि च ग्रामीणेभ्यः योजनानां लाभः सरलतया भविष्यति। एताः समितयः ग्रामीणक्षेत्रेषु सहकारी संस्थानानां विकासकार्ये सहायकाः भविष्यन्ति। मन्त्रिणा सबलं प्रकाशितं यत् पूर्वं यदा देशे आधारभूत संरचनाभ्यः प्राथमिकता नैव प्रदत्तासीत् तदा पूर्वं पूर्वप्रधानमन्त्रिणा अटलबिहारी वाजपेयी वर्येण स्वर्णिम चतुर्भुज मार्गः शुभारम्भितः। अफगानिस्तान देशस्य अल्पकालिकं तालिबान प्रशासनं समुद्घोषयत् यत् पूर्वीय पक्तिका प्रान्ते पाकिस्तान सम्बद्धैः विमानैः पक्तिकायाः बरमल जनपदस्य चतुर्षु स्थानेषु विस्फोटाक्रमणं कृतवत्, येन हि षट्चत्वारिंशत् जनाः मारिताः। सूचनेयम् अल्पकालिक तालिबान प्रशासनस्य उपप्रवक्त्रा मुल्ला हमदुल्ला फितरत इत्यनेन प्रदत्ता। भारोत्तोलन प्रतियोगितायां मार्टिना देवी ह्यः दोहायां एशियाई कनिष्ठ वर्गीयायां प्रतिस्पर्धायां महिलानां कनिष्ठदलस्य 87 किलोग्राम भारमितस्य वर्गे रजत पदकं विजितवती।